महिन्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः अथावाच सर्व स्वमतिपरिणामावधिगृणन् ममापेक्षस्तोत्रे हर निरपवाद परिकरः अतीतः पन्थानं तव च महिमावां मनसयो अतद्व्यावृत्यायं चकितमभिधत्ते श्रुतिरपि स कस्य स्तोतव्य कतिविदगुणः कस्य विषयः पदे त्वरवाचीने पतति न मनः कस्य न वचः मधुस्फीता वाचः परममृतं निर्मितवतः तव ब्रह्मन् किं वाक् अपि सुरगुरो विस्मयपदम् मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता तवैश्वर्यं यत्तज् जगदुदय रक्षा प्रलयकृत् त्रैवस्तु व्यस्तम् त्रिषुषु गुणिभिन्नासु तनुषु अभव्यानामस्मिन् वरदरमणीयां मरमणिं विहन्तुं व्याक्रोशिं विदधत इहेके जडदिय किमिह किङ्काय स खलु किमुपाय स्त्रिभुवनम् किमाधारो धाता सृजति किमुपादान इति च अतर्केश्वर्ये त्वयि अनवसरदुस्थो हतधिय कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगत अजन्मानो लोकः किमवयववन्तोऽपि जगताम् अधिष्ठातारं किं भवविदरनादृत्य भवति अनीशो वा कुर्यात् भुवनजननेकः परिकरो यतो मन्दास्त्वां प्रयमरवरशंसेरत इमे त्रैसाङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च रुचीनां वैचित्र्यात् ऋजुकुटिलनापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव महोक्षः खट्वाङ्गं परशुरजनिं भस्म फणिनः कपालं च कियत्तव वरदतन्त्रोपकरणं सुरास्तां तां वृद्धिं ददति तु भवद्भ्रूप्रणिहितां न हि स्वात्मा रामं विषयमृगतृष्णा भ्रमयति ध्रुवं कश्चित् सर्वं सकलमपरस्वत्तद्ध्रुवमिदं परो ध्रुव्याध्रुव्ये जगति गदति व्यस्तविषये समस्तेऽपि तस्मिन् पुरमथनतैर्विस्मित् इव स्तुवं जिरेमि त्वाम् न खलु ननु दृष्टा मुखरता तवैश्वर्यं यत्नाद् यदुपरि विरञ्चिर् हरिरद परिच्छेत्तुं याता वनलमनलस्कन्दवपुष ततो भक्ति श्रद्धा भरगुरुग्रणद्भ्यां गिरिशयत् स्वयं तस्थेताभ्यां तव किमनुवृत्तिर्न भलति अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरम् दशास्यो पद्बाहून भृतरणकण्डूपरवशान् शिरः पद्मश्रेणीरचितचरणाभ्यां भुरुबले स्थिरायास्तद्भक्ते त्रिपुरहर विस्फुर्जितमिदम् अमुष्यत्वत्सेवा समधिगतसारं भुजवनम् बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः अलभ्यापाताले प्यलसचलिताङ्गुष्टशिरसि प्रतिष्ठा त्वय्यासे ध्रुवमुपचितौ मुह्यति खल यदृद्धिं सुक्रम्णो वरद परमोच्चैरपि सती अधश्चक्रे बाण परिजन विधेय त्रिभुवनः न तच्चित्रं तस्मिन् वरिवसितरित्वच्चरणयो न कस्या उन्नत्तै भवति शिरसस्त्वै यवनति अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा विधेयस्यामासीत् त्रिनयन विशंसंवृतवतः सकल्माषकण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः असीधार्था नैव क्वचिदपि स देवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशखा सपश्यन्नीषत्वामितरसुरसाधारणमभूत् स्मर स्मर्तव्यात् न हि वशिपुपथ्य परिभवे महीपादाधाताद् व्रजति सहसा संशयपदम् पदं विष्णोर्भ्रं यद् भुजपरिगरुग्रहगणम् मुहुर्दोर्दोस्तं यात् अनिभृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता व्यद्व्यापी तारा गणगुणितपेनोद्गमरुचि प्रवाहो आराम्यः पृषतलघुदृष्टः शिरसिते जगद्वीपाकारं जलधिवलयं तेन कृतमि यनेनैवोन्येयं घृतमहिमदिव्यं तव वपुः रथक्षोणीयन्ता शतध्रतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणिपाणि शर इति दिदक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधिः विधेयै क्रीडन्तो न खलु परतन्त्रा प्रबुधियः हरिस्ते साहस्रं कमलबलिमाधाय पदयो यदेको नेतस्मिन् निजमुदहरण्येत्रकमलम् गतो भक्त्युद्रेक परिणतिमसौ चक्रवपुषो त्रयाणां रक्षायै त्रिपुरहर जागरति जगताम् कृतौ सुक्ते जाग्रत् त्वमसि फलयोगे क्रतुमताम् क्व कर्म प्रध्वस्तम् फलति पुरुषाराधनमृते अतस्त्वां सम्प्रेक्ष्य ऋतुषु फलदानप्रतिभुवम् श्रुतौ श्रद्धां बद्ध्वा कृतपरिकरः कर्म सुजनः क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृताम् ऋषीणामार्तुज्यं शरणदसदस्यासुरगणाः क्रतुभ्रंशस्तत्त क्रतुफलविधानव्यसनिनो ध्रुवं करोतु श्रद्धा विदुरमभिचाराय हि मखा प्रजानाथं नाथ प्रसभभविकं स्वां दुहितरम् गतं रोहितभूतां रिरमयुषमृषस्य वपुषा धनुष्पाणिर्यातं दिवमपि सपत् कृतममुं त्रसन्तं तेद्यापि त्यजति न मृगव्याधरवस स्वलावण्या शंसा धृतधनुषमहना यत्रणवत् पुरः पृष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि यदिस्त्रैणं देवी यमनिरतदेहार्दघटना अवैति त्वा मद्धा बतवरदमुग्धा युवतय श्मशानेष्वा क्रीडा स्मरहर पिशाचा सहचरा चिता भस्मालेप श्रगपि नृकरोटी परिकर अमङ्गल्यं शीलं तव भवतु नामैवमखिलम् तथापि स्मरतणां वरद परमं मङ्गलमसि मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृश्य द्रोमाण प्रमदसलिलोत्सङ्गितदृश यदालोक्याह्लादं हृद इव निमज्जामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवः त्वमापस्त्वं व्योम त्वमुधरणिरात्मा त्वमिति च परिच्छन्नामेवं त्वयि परिणता बिभृतुगिरं न विद्मस्तत्त्वं वयमिह तु यत्त्वं न भवसि त्रयीं त्रिस्तो वृत्तिस्त्रिभुवनमथो त्रेणपि सुरान् अकाराद्यैवर्णैस्त्रिभिरभिदधत्तीर्णविकृति तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वं शरणदगृणात्योमिति पदम् भवः शर्वो रुद्रः पशुपतिरथोग्रह सह महान् तथा भीमेशानाविति यदभिधानाष्टकमिदम् अमुष्मिन् प्रत्येकं प्रविचरति देवश्रुतिरपि प्रियायास्मै धाम्ने प्रविहित नमस्योऽस्मि भवते नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नमक्षोदिष्ठाय स्मरहरमहिष्ठाय च नमः नमो वर्षिष्ठाय त्रिनयनयविष्ठाय च नमो नमः सर्वस्मै ते तदिदमति सर्वाय च नमः बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः जनसुखकृते सत्वोद्रिक्तौ मूढाय नमो नमः प्रमहसि पदे निस्त्रैग्ने शिवाय नमो नमः कृशपरिणति चेत क्लेशवशं क्वचेदं क्वच तव गुणसीमो लङ्घिनीशश्वरिद्धि इति चकितममन्दीकृत्य मां भक्तिराधा वरद चरणयोस्ते वाक्यपुष्पोपहारम् असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरिशाखालेखने पत्रमूर्वी लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानाम् ईशपारं नयाति असुरसुरमुनीन्द्रैरर्चितस्येन्दुमूले ग्रथितगुणमहिम्नो निर्गुणस्यश्वरस्य सकलगणवरिष्ठपुष्पदन्ताभिधानो रुचिर्मलघुवृत्तै स्तोत्रमेतच्चकार अहर हर नवद्यं धूर्जटे स्त्रोत्तमेतत् पठति परम भक्त्या शुद्धचित्त पुमान् स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतरधनायुपुत्रवान् कीर्तिमानश्च महेशान्नो परो देवो महिम्नो नापरास्तुति अघोरान्नापरो मन्त्रो नास्ति त्वत्त्वं गुरुः परम् दीक्षादानं तपस्तीर्थं योगयागादिका क्रिया महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशी कुसुमदशननामा सर्वगन्धर्वराजा शिशुशशिधरमौलेर्देवदेवस्य दासा स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदं कार्षेद् दिव्यदिव्यं महिम्ना सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्य प्राञ्जलिर्नान्यचेतः व्रजति शिवसमीपं किन्नरैस्तूयमान स्तवनमिदमोघं पुष्पदन्तप्रणीतम् श्रीपुष्पदन्तमुखपङ्कजनिरगतेन स्तोत्रेण किल विषहरेण हरप्रियेण कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेश इत्तेषा वाङ्मयी पूजा श्रीमच्छङ्करपादयो अर्पिता तेन देवेश प्रियतां मे सदाशिवः। इति श्री पुष्पदन्ताचार्य विरचितम् श्रीमहिम्नः स्तोत्रम् समाप्तम्।